सर्वेषां नमस्कारः. अस्मिन् वर्गे स्वागतम्. गतवर्गे वयं द्वितीयविभक्तिविषये वयं पठितवन्तः. तस्मिन् विषये अनेकान् विषयान् वयं चर्चितवन्तः. अधुना अपि तदेव कुर्मः. यद्वयम् अवगतवन्तः, यद्वय न अवगतवन्तः इति अपि चर्चां कृत्वा अवगमनं कुर्मः. अस्तु, क्षम्यतां सर्वे. गतसप्ताहे अहं ध्वनिमुद्रणं न प्रेषितवती. किञ्चित् क्लेशः आसीत्, अतः अहं न प्रेषितुं शक्नोति. अद्य अहं प्रेषयिष्यामि. क्षम्यताम्. अस्तु, गतवर्गे स्क्रीन् शेर् करोमि इदानीम्. अस्तु, सर्वे दृश्यते वा इति, दृश्यन्ते वा इति वदन्तु.
आं भगिनि, दृश्यते.
दृश्यते किल? धन्यवादः, सूचनार्थं धन्यवादः भगिनि. अस्तु, गतवर्गे वयं द्वितीय अभ्यासं कृतवन्तः. दशवाक्यानि कृतवन्तः. अस्तु, किं मूलप्रमुखविषयः किम् आसीत् गतवर्गे? माधवी भगिनी, क्लीवन् माधवी भगिनी वदति वा, गतवर्गे मूलविषयः किम् आसीत् द्वितीयविभक्तिविषये? क्लीवन् माधवी भगिनी अस्ति वा?
कर्मपदं द्वितीयाविभक्तौ भवति.
आम्, समीचीनम्.
यत् तुमुन् त्वान्तप्रत्यय, तुमुन् प्रत्यय, शत्रन्तप्रत्यय, यत्र यत्र भवति तत्र पार्श्वे यः पदम् आगच्छति तत् द्वितीयविभक्तौ भवति.
अस्तु भगिनि, तद् पठित्वा प्रक्षाल्य यत्र त्वान्तं, ल्यबन्तं, तुमुनन्तं, शत्रन्तम् अस्ति तद् क्रियापदरूपं भवति. आम्, अत्र एकस्मिन् वाक्ये एव कर्मपदं द्वयमपि आसीत् गतवर्गे वयं दृष्टवन्तः. अस्तु, एकस्मिन् वाक्ये आं भगिनि, एकादशवाक्यं पठतु.
अङ्कणी क्रेतुं सा आपणं गतवती. अङ्कणीं क्रेतुं सा आपणं गतवती.
आम्, अत्र क्रियापदं कुत्र अस्ति?
गतवती.
आं, समीचीनं, गतवती. तस्य कर्मपदं किम्?
आपणम्.
प्रथमविभक्तिः
आपणः.
समीचीनं, आपणं गतवती, समीचीनम्. आपणम् इति पदं कर्मपदं. कस्य कर्मपदं? गतवती इति क्रियापदस्य कर्मपदम्. एतस्मिन् वाक्ये, एतस्मिन् वाक्ये. अनन्तरं क्रियापदरूपम् अस्ति वा?
क्रेतुं क्रियापदं
भवत्येव चिन्तयित्वा वदतु. क्रियापदम् अस्ति वा, क्रियापदरूपम् अस्ति वा? क्रियापदं रूपम् अस्ति चेत् कीदृशरूपं?
तुमुन् रूपं.
समीचीनं, तुमुनन्तरूपं क्रियापदरूपं भवति. समीचीनं. अस्तु, तस्य कर्मपदम् अङ्कणीं कर्मपदम्, कर्मपदरूपेण वदतु. अङ्कणीं क्रेतुं सा आपणं गतवती.
भगिनी, क्रियापदं क्रियापदस्य रूपं द्वे भिन्नं,
तौ समानं वा भिन्नः वा, कथं भिन्नः इति भवत्याः प्रश्नः अस्ति किल? अस्तु भगिनी, इदानीं कोष्टकम् अस्ति किल मम अस्माकं समीपे क्रीणाति क्रीडति लिखति पठति खादति तादृशं ते एतानि पदानि क्रियापदरूपाणि अस्ति अस्तु किल अस्तु इदानीं तस्य क्रियापद योजनेन प्रत्ययः इति अस्ति किल प्रत्ययः समथिङ्ग् दट् यु एड् टु द क्रियापदम् रैट् सो इट्स् टेक् सफिक्स् सफिक्स् इस् अ क्रियापदं सारि सफिक्स् इस् अ प्रत्ययः इट् इस् समथिङ्ग् दट् यु एड् टु द क्रियापदम् suffix is something that you add to the kriyapadam right after adding you will have a new form that's a kriyapada roopam that new form is a kriyapada roopam
astu avagatam bhagini
atra kretum iti lyabanta roopam sar kshamatam tvat tumanta roopam tumaranta roopam asti atah kriyapada roopam bhavati तस्य क्रियापदं कथं भवति क्रेतुम् इति
क्रीणाति
क्रीणाति क्रियापदं भवति प्रत्ययस्य योजनेन क्रेतुम् इति भवति
आं भगिनि क्रीणाति क्रियापदं क्रेतुं क्रियापदरूपं
या इदानीम् अवगतं वा भेदः
धन्यवादः
समीचीनम् अस्तु अग्रे अपि पठतु कृपया
सः मित्रस्य टिप्पणी स्वीकर्तुं तस्य गृहं गतवान् सः मित्रस्य टिप्पणीं स्वीकर्तुं तस्य गृहं गतवान्
अत्र टिप्पणी इति अर्थः नाम अर्थः भवति नोट्स् इति टिप्पणीं नाम नोट्स् अस्तु अत्र क्रियापदं किं
क्रियापदं गतवान्
अस्तु तस्य कर्मपदं किं
गृहं
समीचीनम् अन्य क्रियापदम् अथवा क्रियापदरूपम् अस्ति वा
क्रियापदं रूपं स्वीकर्तुं
समीचीनं
स्वीकरोति पदस्य रूपं
समीचीनं बहु समीचीनम् आम् तस्य कर्मपदं
टिप्पणीं
बहु समीचीनम् इदानीम् अवगतं वा
आं भगिनि
एतस्मिन् वाक्ये कर्मपदं कति सन्ति
द्वे कर्मपदे पदौ
कर्म द्विवचनं त्यजतु इदानीं द्विवचनं त्यजतु केवलम् एकवचनम् अथवा बहुवचनम् उपयोगं करोतु सुलभं भवति किल अतः
कर्मपदद्वयमस्ति
टिप्पणीम् इति कर्मपदं स्वीकरोति इति शब्दस्य कर्मपदं भवति एतस्मिन् वाक्ये गृहम् इति कर्मपदं गतवान् इति क्रियापदस्य कर्मपदं भवति समीचीनम् अस्तु शिशु अग्रे पठतु अग्रे
शिशुः अम्बा स्मरन् रोदन् कृतवान् शिशुः अम्बां स्मरन् रोदनं कृतवान्
समीचीनम्
कृतवान् क्रियापदं
समीचीनं
कृतवान् क्रियापदस्य कर्मपदं रोदनं
समीचीनं
क्रियापदस्य रूपं स्मरन् क्रियापदरूपस्य कर्मपदम् अम्बाम्
अम्बां समीचीनं बहु समीचीनम् एतत् पर्यन्तं भवती अवगतवती तदपि बहु समीचीनं परन्तु अन्य इतोपि चिन्तनम् आवश्यकमस्ति स्मरन् इति शब्दः तस्य प्रत्ययः चिन्तयित्वा वक्तुं प्रयत्नं करोति वा
स्मरति क्रियापदं
समीचीनं, बहु समीचीनं. के प्रत्ययाः वयं पठितवन्तः? त्वान्तं, त्वान्तम् अस्ति वा? त्वान्तं वा?
त्वान्तं नास्ति.
नास्ति. ल्यबन्तम् अस्ति वा?
ल्यबन्तमपि नास्ति.
नास्ति. तुमुनन्तम् अस्ति वा?
तुमुन्नन्तमपि नास्ति.
नास्ति. शत्रन्तम् अस्ति वा?
इट् हेस् टु बि शत्रन्तम्.
किमर्थं, कथं? गतवर्गे एकनिमिषः अत्र पश्यन्तु. गतवर्गे सर्वे पश्यन्ति वा एतद् स्क्रीन् मध्ये? अत्र पठति इति शब्दस्य शत्रन्तरूपं पठन् पुल्लिङ्गशब्दः भवति. पठन्ती दीर्घ ईकारः अस्ति चेत् स्त्रीलिङ्गं भवति, नपुंस्कलिङ्गे पठत् इति भवति. तादृशमेव पठति इति स्थाने स्मरति इति क्रियापदं स्वीकरोतु. कथं भवति त्रिषु लिङ्गेषु, कथं भवति?
स्मरन्
पुल्लिङ्गे स्मरन् भवति, समीचीनं.
स्त्रीलिङ्गे स्मरन्ति भवति,
समीचीनं.
नपुंसकलिङ्गे स्मरत् भवति,
बहु समीचीनं, बहु समीचीनम्. अत्र एतस्मिन् वाक्ये शिशुः अम्बां स्मरन् इति अस्ति. अत्र कीदृशप्रयोगः?
शत्रन्त
रूपं, शत्रन्त पुल्लिङ्गरूपं, समीचीनं, बहु समीचीनम्. इदानीम् अवगतं वा?
आं भगिनि.
समीचीनम् अस्ति, स्पष्टम् अस्ति वा?
बहु स्पष्टम् अस्ति भगिनि.
समीचीनं, समीचीनं, धन्यवादः. अग्रे अपि पठतु कृपया.
स्क्रीन् न दृश्यते.
क्षम्यतां, क्षम्यतां, क्षम्यताम्.
भक्तः मन्त्रः पठन् पूजां करोति. भक्तः मन्त्रं पठन् पूजां करोति. एतस्मिन् वाक्ये करोति क्रियापदं, करोति पदस्य कर्मपदं पूजां, क्रियापदस्य रूपं क्रियापदरूपं पठन्, पठन् क्रियापदरूपस्य कर्मपदं मन्त्रं, पठन् इति शब्दः शत्रन्त पुल्लिङ्ग शत्रन्त
रूपं, बहु समीचीनं, बहु समीचीनं. अग्रे अपि इतोपि एकं वाक्यमेव पठतु.
कृषिकः कृषिः कुर्वन् जीवति. कृषिकः कृषिं कुर्वन् जीवति. एतस्मिन् वाक्ये जीवति क्रियापदं, कुर्वन् जीवति पदस्य कर्मपदं न दृश्यते भगिनि.
बहु समीचीनं, तदेव उत्तरं भवति.
कुर्वन् इति क्रियापदस्य शत्रन्तरूपं, कुर्वन् क्रियापदस्य रूपं, कुर्वन् क्रियापद
भगिनि, क्रियापदस्य रूपं न क्रियारूपं, क्रियापदरूपं,
क्रियापदरूपम्, आम्, क्रियापदरूपं कुर्वन्, कुर्वन् शब्दस्य कर्मपदं कृषिं, कुर्वन् पुल्लिङ्ग शत्रन्त रूपं.
बहु समीचीनं, बहु समीचीनं. अवगतं किल भगिनि? बहु समीचीनं, धन्यवादः भगिनि. अस्तु प्रगति भगिनि.
आं भगिनि,
अग्रे पठति वा कृपया.
हरि ओम्.
हरि ओं भगिनि, श्रूयते वा? अहं शृणोमि भगिनि.
बालकाः विद्यालयं गच्छन्तः पाठं स्मरन्ति. अत्र स्मरन्ति क्रियापद तस्य कर्मपदं पाठं गच्छन्तः शत्रान्तरूपं तस्य कर्मपदं विद्यालयं.
समीचीनं, बहु समीचीनम्. अस्तु, अत्र शतन्त्ररूपं गच्छन्तः शतन्त्ररूपमेव. पुल्लिङ्ग पठन् अस्ति किल, पठन् एकवचनरूपं भवति, प्रथमाविभक्ति एकवचनं भवति. तस्य शतन्त्ररूपम् शतन्त्ररूपे अपि विभक्तौ विभक्तयः सन्ति. पठन् अस्तु, पठन् इति शब्दः अस्ति किल, तस्य बहुवचनं भवति पठन्तः. तादृशमेव गच्छन् इति शब्दस्य बहुवचनरूपं गच्छन्तः, शतन्त्ररूपं बहुवचनं. समीचीनम्. अग्रे अपि पठितुं शक्नोति वा प्रगति भगिनी? अस्तु, चिन्ता मास्तु. अग्रे मधु भगिनी.
आं भगिनि. आपणिकः ग्राहकः दृष्ट्वा सन्तोषम् अनुभवति. आपणिकः ग्राहकां दृष्ट्वा सन्तोषम् अनुभवति. भगिनि, ग्राहकाः इस् बहुवचन, फर् दट् कर्मपदरूप इस् ग्राहकां. भगिनि
पुनः उत्तरं किं भगिनि? ग्राहकाः इति बहुवचनं भवति, तस्य द्वितीया बहुवचनं कथं भवति?
ग्राहकां.
समीचीनं, ग्राहकान्. आम्, समीचीनं. आम्,
आप एतस्मिन् वाक्ये क्रियाद्वयं क्रियापदं सन्ति. अनुभवति क्रियापदस्य कर्मपदं सन्तोषं, दृष्ट्वा क्रियापदरूपं त्वान्तक्रियापदरूपम् इति पदस्य कर्मपदं ग्राहकाम्.
ग्राहकान्. आम्, समीचीनम्. अत्र दृष्ट्वा इति कीदृशरूपं क्रियापदरूपं
भगिनि? ऐ कुड् नाट् हियर् यु.
क्षम्यता, मम ध्वनिः सम्यक् नास्ति वा? मम ध्वनिः
नौ इट् इस् फैन् भगिनि.
समीचीनं वा? अस्तु, दृष्ट्वा इति शब्दः क्रियापद कीदृशक्रियापदरूपं, प्रत्ययः कः अत्र?
पश्यति. पश्यति,
समीचीनं. पश्यति क्रियापदं भवति. दृष्ट्वा भवति. समीचीनं, ग्राहकान्. अग्रे अपि पठतु कृपया.
पितामहः देवान् पूजयित्वा भोजनं करोति. एतस्मिन् वाक्ये क्रियापदं द्वयं सन्ति. करोति पदस्य कर्मपदं भोजनं, पूजयित्वा त्वान्त प्रत्ययक्रियापदरूपम् इति पदस्य कर्मपदं देवान्.
समीचीनं, बहु समीचीनम्. एतस् अत्र षोडशवाक्यान् पर्यन्तं केवलम् एकवचनमेव अस्ति कर्मपद द्वितीयविभक्तिरूपं केवलम् एकवचनमेव अस्ति. तस्य अनन्तरं बहुवचनम् अस्ति, अतः बहु सम्यक्तया सावधानेन भवती उक्तवती. समीचीनं भगिनि. अस्तु, आम्, देवानेव समीचीनं भवति. समीचीनम्. अग्रे अपि पठति वा?
आं भगिनि. तण्डुलाः क्रेतुं सः आपणं गच्छति. तण्डुलान् क्रेतुं सः आपणं गच्छति. एतस्मिन् वाक्ये द्वयं क्रियापदं सन्ति. गच्छन्ति ये क्रिया इति कृता क्रियापदस्य कर्मपद आपणं क्रेतुं क्रियापदरूपं तुमुनन्तरूपम् इति पदस्य कर्मपदं तण्डुलान् अस्ति.
आम् बहु समीचीनम्. समीचीनम्.
सः जनाः आव्य नीतिं बोधयति.
अत्र आहूय अस्ति. आहूय
आहूय नीतिं बोधयति. सः जनान् आहूय नीतिं बोधयति.
समीचीनम्.
एतस्मिन् वाक्ये द्वयं क्रियापदानि सन्ति. बोधयति इति पदस्य कर्मपद नीतिं अस्ति. आहूय इट् इस् बहुवचन दिस् वन् भगिनि क्रियापदरूपम्
आहूय आह्वयति इति क्रियापदस्य त्वान्त ल्यपन्त ल्यबन्तरूपम् आहूय भवति.
आहूय ल्यबन्तक्रियापदरूपम् इति पदस्य कर्मपदं जनान्.
बहु समीचीनं. समीचीनं. धन्यवादः भगिनि.
धन्यवादः भगिनि.
समीचीनं
भगिनि.
आम्
एकः प्रश्नः अस्ति.
आम् कः प्रगति भगिनी वा?
आम् आम्
आम् आम् पृच्छतु भगिनि.
लास्ट् वीक् यु सेड् अबौट् सकर्म केन अकर्म.
आम् तद्विषये इतोपि पञ्चवाक्यानि अपि अस्ति सन्ति. तद् पूर्णयित्वा अकर्मक सकर्मकधातुविषये पश्यामः. आम् भवती प्रश्नः तदेव वा इतोपि अस्ति वा?
नास्ति फोर् देट् वी डोण्ट् हेव् कर्मपदं. सो मै क्वशन् वास् फोर् आल् द क्रियापद रूपं एव्रि टैम् विल् हेव् द कर्मपदम् और्
not necessarily, not necessarily.
Thank you.
Here they have given few certain sentences where just in 26 sentences we have so much to learn, and they have given sentences, structured sentences such a way for us to learn and observe so many things. Not necessarily it should have a karmapadam. Since we are learning about dvitiya vibhaktihi, the sentences have been structured in such a way that we see all these. But not necessarily bagini.
Okay.
Asta.
Okay. Thank you.
Asta. Savita bagini? Savita bagini asti va?
आं भगिनि. आं भगिनि, सोरि.
चिन्ता मास्तु. आम्
ओके.
21
छात्राः. ओके.
आम्
छात्राः बोधयन् ओके अध्यापकः तृप्तिं प्राप्नोति.
नो
प्राप्नोति. ओके ओके प्राप्नोति. न ओके प्राप्नोति. ओके छात्रान् बोधयन् ओके अध्यापकः तृप्तिं प्राप्नोति. ओके यस्मिन् वाक्ये एतस्मिन् वाक्ये प्राप्नोति क्रियापद तस्य कर्मपदं तृप्तिं. ओके ओके अध्यापकः ओके छात्रान् इस् कर्मपद छात्रान् कर्मपद बोधयान् इस् बोधयन् बोधयन् इस् क्रिया what do you say for that?
Pashyatu atra.
Bodhayan is Shatranta Rupa. Shatranta Rupa. Okay. Shatranta Rupa.
Samichinam.
Okay. Tasya Karmapada Chatran.
Samichinam bhagini. Atra adhyapakah.
So what do you say for this one? Dvanta Labhyanta Rupam, no? Yeah.
Rupam
eva. Kriya, Kriya Rupa.
त्वान्तरूपं ल्यबन्तरूपं तुमुनन्तरूपं शत्रन्तरूपम् इति साधारणतया वदामः
ऐ जस्ट् फर्गाट् द क्रियापदरूपम्
अत्र पश्यतु द्वितीयपुटे चतुर्थवाक्यानि सन्ति किल तस्य अनन्तरम् एतेषु वाक्येषु चतुरस्रचिह्ने क्रमशः त्वान्तरूपं ल्यबन्तरूपं तुमुनन्तरूपं
शत्रन्तरूपं च पदं सूचयति
तदेव अत्रापि बोधयन् शत्रन्त पुल्लिङ्ग शत्रन्तरूपम्
ओके बोधयन् इस् द पुल्लिङ्ग शत्रन्तरूपम्
किमर्थं पठन् इति अस्ति किल पठन् तादृशं स्मरन् बोधयन् अत्र अध्यापकः कः
अध्यापक इस् कर्तृ
बहु समीचीनम् Yeah, that was a tricky sentence, right?
Katrupada. Pitamahi kataha uktva balan doshayati. Doshayati is the verb, that is kriyapada. Tasya... तस्य कर्मपद इस् बालान् बहुवचन बहुवचनरूपम्
भगिनि इस् इट् पासिबल् फार् यू टु मूव् अ लिटल् फार् अवे फ्रम् द सम् साउण्ड्
ओके ओके जस्ट् अ मिनट्
जस्ट् ऐ केन् वेट् या या वि केन् वेट्
Sorry, Bhagini.
Thanks, Chitamasa. No problem. Okay. Thanks
okay. for understanding. Yeah. Okay. Uktva is the Tvanta Rupam of... Uktva is... Prushtati... I just forgot.
Vadati.
Vadati. Okay. Tvanta Rupam of Vadati. Tasya Karmapada is Katan.
भगिनि अत्र चिन्तनम् आवश्यकं यदा वयं बहुवचनरूपे वदामः तस्य पूर्वं चिन्तनम् आवश्यकं किमर्थं तत् पदं पुल्लिङ्गशब्दं वा पुल्लिङ्गशब्दः वा स्त्रीलिङ्गशब्दः वा नपुंसकलिङ्गशब्दः वा इति अत्र एतस्मिन् वाक्यस्य पूर्वे छात्राः इति अस्ति तस्य प्रथमविभक्तिरूपं छात्रः छात्राः छात्रं छात्रान् इति वदामः जनः अस्ति चेत् जनः जनाः जनं जनान् इति वदामः पुल्लिङ्गरूपे अत्र कथा अस्ति कथा इति स्त्रीलिङ्गशब्दः भवति
कथाः एव
एकवारं वाक्यं समीकृत्वा वदति वा
ओके पितामही कथाः उक्त्वा बालान् तोषयति
समीचीनम् अत्र अन्यप्रश्नः अस्ति अहं पृच्छामि कथा इति शब्दः स्त्रीलिङ्गशब्दः लता इति शब्दः
लताः
द्वितीयविभक्तिरूपं
लताः एव
भवती एकवचनं बहुवचनं द्वौ अपि वदतु कृपया
ओके ओके
लता
लता तस्य लतापदस्य
प्रथमाविभक्ति एकवचनं लता बहुवचनं
लताः
द्वितीयविभक्ति
एकवचनं लतां द्वितीयविभक्ति बहुवचनं लताः
समीचीनं समीचीनं सीता अस्ति चेत् एकवचनं प्रथमविभक्ति एकवचनं सीता
सीता द्वितीय कर्मपदं सीतां
प्रथमविभक्ति बहुवचनं वदतु
सीताः
द्वितीयविभक्तिः
एकवचनं द्वितीयविभक्ति सीतां बहुवचनं सीताः
समीचीनम् अत्र एतस्मिन् वाक्ये एव पश्यतु पितामही कथा इति शब्दः स्त्रीलिङ्गशब्दः तस्य द्वितीय बहुवचनमपि कथाः एव भवति प्रथमा बहुवचनं द्वितीया बहुवचनं समानमेव स्त्रीलिङ्गशब्दे किल समीचीनं पितामही कथाः उक्त्वा बालान् अस्ति बालान् इति शब्दस्य प्रथमविभक्ति एकवचनं किम्
बालः
एव
बालः ओके
बालः बहुवचनं
हलो
आं भगिनि
बालः
आं समीचीनं समीचीनं बालः समीचीनम् एक प्रथमाविभक्ति बहुवचनं
बालाः
समीचीनं द्वितीयविभक्ति एकवचनं
बालां
बहुवचनं
बालान्
आं बहु पुल्लिङ्गशब्दः अस्ति चेत् बालः बालाः बालं बालान् अत्र पुल्लिङ्गशब्दः रूपम् अस्ति कर्मपदरूपम् अन्य कर्मपदरूपं कथाः अस्ति तत् स्त्रीलिङ्गरूपं भवति कर्मपदं पुल्लिङ्गशब्दः पुल्लिङ्गरूपमपि अस्ति स्त्रीलिङ्गरूपमपि अस्ति समीचीनं अग्रे पठतु
ओके ओके अद्य पटाः
पठितुं
पाठाः पठितुं मम उत्साहः नास्ति उत्साहः नास्ति ओके सो दिस् इस् अकर्मक क्रियापदनु ओके सो नास्ति इस् अ क्रियापद तस्य कर्मपदं नास्ति नु ओके पठितुम् इस् कर्म क्रियारूपं तस्य कर्मपदं पाठान्
तस्य प्रथमविभक्ति एकवचनं
पाठः
बहुवचनं
पाठाः
द्वितीयविभक्ति एकवचनं
पाठं पाठान्
बहु समीचीनं स्पष्टम् अस्ति किल
स्पष्टम् अस्ति
बहु समीचीनं बहु सम्यक्तया भवती स्मरति नास्ति इति अकर्मकक्रियापदम् इति समीचीनं भगिनि
ओके ओके
अग्रे अपि पठतु
ओके गृहस्वामी स्वामी केन् यु जस्ट् एन्लार्ज् इट्
एकनिमिषः इदानीं सम्यक् अस्ति
सम्यक् सम्यक् अस्ति ओके ओके गृहस्वामी बान्धवाः सम्प्रेक्ष्य गृहं प्रत्यागतवान् ओके गृहस्वामी बान्धवान् बान्धवान् सम्प्रेक्ष्य गृहं प्रत्यागतवान् ओके प्रत्यागतवान् क्रियापद तस्य कर्मपदं गृहं सम्प्रेक्ष्य कर्म क्रियारूपं क्रियारूपं लेबन्तरूपम्
समीचीनम्
ओके
सत्यं
ओके तस्य कर्मपदं बान्धवान्
कथं निर्णेतुं शक्नुमः बान्धवान् भवति वा बान्धवाः भवति वा पुल्लिङ्गशब्दः वा स्त्रीलिङ्गशब्दः कथं निर्णेतुं शक्नुमः
बान्धवः इस् पुल्लिङ्गशब्दः
यदा वयं पदं यदा वयं पदं पश्यन्तः तदा सावधानेन पुल्लिङ्गशब्दः वा प्रथमाविभक्ति एकवचनं पुल्लिङ्गशब्दः भवति वा स्त्रीलिङ्गशब्दः भवति वा नपुंसलिङ्गशब्दः भवति वा इति चिन्तयित्वा अन्यविभक्ति अन्यविभक्तिरूपं कथं भवति इति निर्णेतुं शक्नुमः सम्यक्तया कृतवती
पत्रिकाः पठितुं सः ग्रन्थालयं गतवान् ओके पत्रिकाः एव नु
पठितुं
स्त्रीलिङ्ग बहुवचन अकारान्त स्त्रीलिङ्गशब्दः बहुवचनरूपं
समीचीनं
पत्रिकाः पठितुं सः ग्रन्थालयं गतवान् गतवान् क्रियापद तस्य कर्मपदं ग्रन्थालयं पठितुं क्रियारूपं सो तुमुनन्तरूपं
समीचीनम्
ओके तस्य कर्मपदं पत्रिकाः
समीचीनं बहु समीचीनं स्पष्टं वा भगिनि
प्रश्नः नास्ति भगिनि
अत्र वयं पृच्छामः किल सर्वदा वयं प्रश्नाः अस्ति वा प्रश्नाः सन्ति वा इति वदामः किल अत्र अस्ति सन्ति प्रश्नाः अस्ति वा प्रश्नाः सन्ति वा इति वयं यदा वदामः अत्र कर्मपदम् अस्ति वा
It's breaking. Voice is breaking.
क्षम्यताम्
ओके
एतत् पर्यन्तं भवती श्रुणोति वा इदानीं श्रुणोति वा भगिनि
Now I am hearing.
समीचीनम् अस्तु
Before that I was okay.
पुनः अहं पृच्छामि प्रश्नः अस्ति वा प्रश्नः सन्ति वा इति वदामः किल भगिनि अस्तु चिन्ता मास्तु भगिनि धन्यवादः भगिनि पद्मिनी भगिनी अस्ति वा अस्तु एकनिमिषः सर्वे म्यूट् कुर्वन्तु पद्मिनी भगिनी विना अस्तु भगिनि सर्वदा वयं वदामः किल प्रश्नः अस्ति वा प्रश्नाः सन्ति वा इति वदामः किल अत्र अस्ति सन्ति इति वदामः अत्र क्रियापदं भवितुम् अर्ह कर्मपदं भवितुम् अर्हति वा
कर्मपदं नास्ति
किमर्थम् आम् अस्ति इति क्रियापदम् अकर्मकक्रियापदम् वदामि भगिनि एकनिमिषः अहं लिखित्वा वदामि अत्र पश्यन्तु सर्वे भगिनि अत्र पश्यति वा, प्रश्नः अस्ति वा, प्रश्नाः सन्ति वा इति वदामः. साधारणतया वयं पृच्छामः किल कक्ष वर्गे. एकनिमिषः करोमि. इदानीं दृश्यते वा?
न भगिनि.
ओ क्षम्यताम्. इदानीं
स्लैट्लि बेटर्. आम् भगिनि, समीचीनम्.
आम् अत्र प्रश्नः अस्ति वा, प्रश्नाः सन्ति वा इति साधारणतया वर्गे वयं पृच्छामः किल.
आम् भगिनि.
अस्तु, मम प्रश्नः अस्ति अत्र. अस्ति इति क्रियापदं भवति अत्र, तस्य कर्मपदम् अस्ति वा एतस्मिन् वाक्ये? किमर्थं कर्मपदं नास्ति? आम्, अस्ति इति पदम् अकर्मकक्रियापदम्. अकर्मकक्रियापदं नाम किम्? अकर्मकक्रियापदं नाम कर्म तस्य क्रियापदस्य पूर्वं कर्मपदं न भवितुम् अर्हति. अस्तु, अत्र सकर्मकक्रियापदं नाम किम्? तस्य आपोसिट् इति वदामः किल, कर्मपदं भवितुम् अर्हति. सकर्मकक्रियापदं नाम यत्र कर्मपदं भवितुम् अर्हति तत् सकर्मकक्रियापदम् इति वदामः इति नियमः अस्ति. यत्र कर्मपदं न भवितुम् अर्हति क्रियापदस्य रूपं पूर्वं तद् अकर्मकक्रियापदम्. अस्तु, अत्र अस्ति इति शब्दः एकवचनरूपं भवति. भगिनी पद्मिनी भगिनी, केन् यु प्लीस् म्यूट् म्यूट् फ्रम् युर् एण्ड् प्लीस्. आम्, इदानीं समीचीनमस्ति. अस्ति इति क्रियापदम् अकर्मकक्रियापदम्. अकर्मकक्रियापदं नाम किं? तस्मिन् पूर्वे क्रियापदस्य पूर्वं कर्मपदं न भवितुम् अर्हति चेत् तद् अकर्मकक्रियापदम् इति वदामः. सकर्मकक्रियापदं नाम किम्? यत्र क्रियापदस्य पूर्वं कर्मपदं भवितुम् अर्हति तद् सकर्मकक्रियापदम्. अस्तु, एतस्मिन् अत्र उदाहरणमस्ति, प्रश्नः अस्ति वा इति साधारणतया वर्गे वयं वदामः किल. अत्र अस्ति इति क्रियापदम् अकर्मकक्रियापदम्, अतः तस्य पूर्वं कर्मपदं नास्ति. प्रश्नः इति पुल्लिङ्गशब्दः किल, पुल्लिङ्ग प्रथमाविभक्ति एकवचन अकारान्त पुल्लिङ्गशब्दः भवति. अस्ति इति अकर्मकक्रियापदं भवति, अतः तस्य पूर्वं प्रश्नम् इति न भवितुम् अर्हति. केवलं प्रथमविभक्ति एव उपयोगं कुर्मः साधारणतया, प्रश्नः एव. अनन्तरं सन्ति इति अस्ति. सन्ति इति कथं भवति? अस्ति इति शब्दस्य क्रियापदस्य बहुवचनरूपं सन्ति. सर्वे जानन्ति इति अहं चिन्तयामि. अस्ति इति एकवचनं भवति, तस्य बहुवचनरूपं सन्ति. सन्ति अपि अकर्मकक्रियापदम्, अतः पुल्लिङ्गरूपं भवति किल प्रश्नः. तस्य द्वितीयविभक्ति बहुवचनं कथं भवति कर्मपदरूपेण? प्रश्नान् भवति साधारणतया, परन्तु अत्र सन्ति इति अकर्मकक्रियापदं भवति, अतः तस्य पूर्वं कर्मपदं न भवितुम् अर्हति. तादृश तत् कारणात् एव प्रथमविभक्ति बहुवचनरूपमेव अत्र साधारणतया लिखामः. अस्तु, अग्रे इतोपि उदाहरणानि पश्यामः. रविमहोदय, रविमहोदय.
आम् भगिनि.
आम् महोदय, अत्र प्रथमवाक्यं द्वितीयपुटे प्रथमवाक्यं पश्यतु. आम्, केवलं क्रियापदमेव पश्यामः, पूर्णतया वाक्यं न पठनस्य आवश्यकं नास्ति, केवलं क्रियापदमेव पश्यामः. अत्र पठतु इति क्रियापदम् अस्ति. पठतु इति क्रियापदम् अस्ति, अकर्मकक्रियापदं वा सकर्मकक्रियापदं वा?
सकर्मक.
समीचीनं. साधारणतया पठति इति भवति क्रियापदरूपं, तस्य पूर्वं भवितुम् अर्हति, कर्मपदं भवितुम् अर्हति. समीचीनं. पुस्तकं पठति, पुस्तकं पठामि इति वदामः किल, अतः सकर्मकक्रियापदम् अस्तु. अग्रे जानन्ति.
जानन्ति, जानन्ति.
अत्रैव पश्यतु, तस्य पूर्वं किम् अस्ति इति पश्यतु. जानन्ति इति शब्द क्रियापदम् अस्ति, तस्य पूर्वं किम् अस्ति?
विषयं जानन्ति. सो इट् इस् सकर्म
सकर्मकक्रियापदम्. समीचीनं. क्रियापदस्य पूर्वं किम् अस्ति इति पश्यन्तु, पश्यति चेत् सुलभः भवति. अनन्तरं कृतवती.
कृतवती, सो रोदनं कृतवती, सो इट् इस् सकर्मकक्रियापदम्.
कृतवती इति भूतकालरूपं वदामः, तव तु प्रत्ययः भवति. करोति इति क्रियापदम् अस्ति किल, सो करोति सकर्मकक्रियापदम्. समीचीनम्. अग्रे
विषयं जानन्ति.
आम्, समीचीनम्.
So, विषयम् इस् अ कर्मपदम्, सो जानन्ति इस् अ सकर्मक क्रियापदम्.
बहु समीचीनम्. अग्रे
सखी गृहं गतवती इस् आल्सो सकर्म क्रियापदम्.
सकर्मक,
सारी सर, सकर्मक क्रियापदम्, बिकास् सखी गृहम् इस् अ कर्मपदम्.
समीचीनम्.
अनुसृत्य गच्छतु.
अनुसृत्य,
अनुसृत्य गच्छतु.
चिन्तनम् आवश्यकमस्ति, चिन्तयित्वा वदतु महोदय. अग्रिमवाक्यं प्रथमतया पठतु, अनन्तरं एतस्मिन् वाक्ये.
विद्यालयं गच्छति. विद्यालयम् इद कर्मपदं, गच्छति इद सकर्मक क्रियापदम्.
इदानीं पठतु, अनुसृत्य गच्छतु इति अस्ति वाक्यम्.
अनुसृत्य, बिकास् ऐ एम् जस्ट् trying to gather the meaning of anusrutya first.
Anusrutya nama follow. Lyabanta pratyaha.
Anusrutya
gacchatu. Atra mahodaya saptama vakyam pashyatu, vidyalayam gacchati iti apyasti. Samichi asti va? Kimartam bhavati bhavan चिन्तनस्य विना भवान् उक्तवान् एतत् सकर्मकक्रियापदम् इति भवान् उक्तवान्, किमर्थम्? अत्र गच्छति इति शब्दस्य क्रियापदस्य पूर्वं विद्यालयं कर्मपदम् अस्ति. भवान् पश्यति अत्र, अतः एव भवान् चिन्तनस्य विना विना भवान् उक्तवान्. परन्तु एत षष्ठम् अत्र षष्ठमवाक्ये गच्छतु इति गच्छति इति अर्थः किल, गच्छतु लोट् लकारे भवति, लोट् लकाररूपं, परन्तु गच्छति इति अर्थः किल?
गच्छामि.
महोदय, क्रियापदरूपं वर्तमान प्रथमपुरुषक्रियापदरूपं गच्छति इति अस्ति किल महोदय? गच्छतु लोट् लकाररूपमेव किल?
गच्छतु इस्
गच्छतु गच्छति इति पदस्य भेदः कः?
गच्छतु इस् वित् तुमन् प्रत्यय
न न न अस्तु. ऐ थिङ्क् वी गाट् जस्ट् गाट् कन्फ्यूस् महोदय. गच्छति इति, वाट् इस् द मीनिङ्ग् आफ् गच्छति?
Gacchati is a go, right?
Ah, samichinam. Gacchati nama go, kila?
Yeah.
Astu. Gacchatu nama?
Okay. Gacchatu is a lot lakar, right? Request.
Ah, Ram, please go. Please go iti arthe bhavati. Gacchati mean nama go. Devalayam gacchatu. Saha devalayam gacchati.
Correct.
इति अस्ति चेत् सः विद्यालयं गच्छति इति अस्ति चेत् वर्तमानकालरूपं नाम प्रेसेण्टेन्स् गच्छतु नाम प्लीस् गो इति अर्थे भवति परन्तु गो इति एव मूल क्रियापदम् अस्ति किल गो इति अर्थे एव भवति किल
आं भगिनि
अस्तु तदपि सकर्मकक्रियापदं क्रियापदमेव किल
Because Anusutya is not Karmapada.
Ah, Mahodhya, here we have to think, we are not thinking that, here, every Kriyapadam need not have a Karmapadam. Every Sakarmaka Kriyapadam need not have a Karmapadam.
Okay.
It is not compulsory to have a Karmapadam before Sakarmaka Kriyapadam.
Mm-hmm.
Here, in the next, if you see in the seventh sentence, Gacchati iti kriyapadam asti kila tasya purvam vidyalam iti karmapadam asti. Parantu, in the sixth sentence, Gacchatu iti kriyapadam asti tasya purvam karmapadam nasti, kevalam nasti.
Okay.
In that sentence, they have not given a karmapadam, but there is a possibility to have a karmapadam.
Amen.
Idani mava gacchati va?
Amen.
No, I'm not convinced. I don't think you have. You are not convinced about.
Yeah, truth.
Can I explain you more, Mahodhya?
Because now the Anusrutya is not a karma pada, right?
Right, Anusrutya is a Lyabanta Rupam. Yeah.
Yeah. So then, in that case, Gacchatu
अस्तु वन् मिनिट् महोदय सि वेट् ऐ वाण्ट् टु टेक् अ सिम्पल् सेण्टेन्स् ओके टेक् द सेवेन्थ् सेण्टेन्स् इट् सेल्फ् गच्छति क्रियापदम् अस्ति तस्य कर्मपदं किम्
विद्यालयं
समीचीनम् एतद् अवगच्छति वा भवान् अण्डर्स्टाण्ड् ओके गो इन् द सेम् सेण्टेन्स् एतस्मिन् वाक्ये एव अन्य क्रियापदरूपम् अस्ति वा
सः देवीं नमस्कृत्य या नमस्कृत्य
अस्तु
इस् अ नाट् क्रियापदं बट् इस् अ क्रियारूपम्
समीचीनं बहु समीचीनं सत्यमेव तस्य कर्मपदं किम्
देवीं
सत्यं तावदेव सो इद यु अण्डर्स्टाण्ड् दिस् रैट्
नो नो दिस् ऐ अण्डर्स्टुड् बट् हियर् इस् बिकास् ऐ एम् नाट् सीइङ्ग्
वन् इन् द सिक्स्थ् सेण्टेन्स् इट् इस् अ सेम् पेटर्न् गच्छतु इस् अ क्रियापदम् एण्ड् बिफोर् देट् दे हेव् नाट् गिवन् अ कर्मपदम् देर् इस् एब्सेन्स् आफ् कर्मपदम् अनुसृत्य इस् अ क्रियापदरूपं ल्यबन्तक्रियापदरूपम्
Correct.
तस्य कर्मपदं व्यवहारम् व्यवहारम् अनुसृत्य अत्र अनुसृत्य क्रियापदरूपं तस्य कर्मपदं व्यवहारं भवति गच्छति इति सकर्मकक्रियापदं परन्तु कर्मपदं नास्ति केवलं नास्ति इट्स् दे हेव् नाट् देर् इस् नो नीड् फार् देर् वास् नो नीड् फार् कर्मपदरूपं सो दे हेव् नाट् मेन्शन्ड् इट् दट्स् आल्
ओके सो स्टिल् इट् बिकम्स् लैक् सकर्मक क्रियापदं
या क्रियापदं हेस् ओन्ली वन् आप्शन् एदर् इट् केन् बि अ सकर्मक आर् अकर्मक
Yeah, but in this case, why it is not akarmaka, that's what I was having a confusion.
Ah, Mahodhya. So, wait, one second.
Because there is no karma padam associated with gacchatu, right?
No, here we are not talking about the sentence. Here, generally, we have done learning about all of these sentences. For the sake of practice, we are trying to go through the kriya padam in the same sentences. So for example, one second, do you all have the kriya padam list with in your hands? Is it near you? Mahodaya, do you have Mahodaya?
Yes, I have. Yeah, I have Bhagini.
Okay, so what is the first, I hope all of you have? Astu. Pratama kriya padam kim Mahodaya?
Tejati.
Mahodaya, wait, no. No, Mahodaya. Patati iti pratama kriya padam asti kila?
Next page. I am going into different page. One minute.
Sure, I can wait.
Okay. I think I was seeing the reverse page. Okay. Patati. Yeah, correct. Patati.
Patati sakarmaka, sakarmaka.
Patati sakarmaka.
Pustakam patati. Grantam patati iti madhavaktum shaknumaha kila. Ataha patati sakarmaka. Astu. Anantaram. Kridati.
Also sakarmaka.
Na, akarmaka.
Kridati.
Sadharatya niyamaha asti kridati iti kriyapadam akarmaka kriyapadam iti. Niyamaha asti.
Okay.
Karma padam na bhavitum arhati. Ataha kridati iti kriyapadam akarmaka kriyapadam iti niyamaha.
Okay.
अस्तु अनन्तरं भवति
भवति इस् आल्सो
तदपि अकर्मकक्रियापदं भवति सर्वे लिखन्तु साधार इस् द यु नो दीस् आर् दि कामन् क्रियापदरूपं दट् वि आर् डिस्कसिङ्ग् सो गोयिङ्ग् फार्वर्ड् वि हाव् टु हाव् दिस् कामन् थिङ्किङ्ग् बिफोर् रैटिङ्ग् अ सेण्टेन्स् यु नो पुस्तकं पठामि this can have a karma padam, this cannot have a karma padam. We have to know at least for these commonly used verbs.
Okay.
So, astu. Patati sakarmaka kriyapadam. Kridati akarmaka kriyapadam. Bhavati akarmaka kriyapadam. Asti.
Asti also akarmaka kriyapadam.
Samichinam. Idani meva drishtavantaka kila vayam. Samichinam. Akarmaka kriyapadam. Samichinam. Likati.
Likati.
You know, just when you are reading through the sentence, this verb list, just put sa and a before every verb so that you it will help you in the future.
Okay.
So asti is
likati.
Asti is akarmaka kriyapadam. Likati is sakarmaka kriyapadam. Yeah. अहं पुस्तकं लिखामि अहं ग्रन्थं लिखामि अहं पत्रं लिखामि पत्रं नाम लेटर् अहं पत्रं लिखामि अतः सकर्मकक्रियापदं लिखति
खादति खादति आल्सो अकर्मकक्रियापदं
सकर्मक अहम् अन्नं खादामि अहं पायसं खादामि पायसन्नं सकर्मक क्रियापदम्
ऐ थिंक यू स्टिल नीड टु सी हाउ टु डिफरेंशिएट बिकॉज़
या इट विल टेक टाइम महोदया देयर आर सम थिंग्स फॉर एग्जांपल यू नो लाइक अस्ति भवति क्रीडति यू नो देयर आर बाय ग्रामर रूल इट इज एन अकर्मक क्रियापदम् यत्र यत्र कर्मपदं न भवितुम अर्हति तत् अकर्मक क्रियापदम् खादति सकर्मक क्रियापदम् मिलति
मिलति इज़ आल्सो सकर्मक क्रियापदम्
महोदय दे से दैट इट्स अकर्मक क्रियापदम् एज़ पर ग्रामर रूल्स दे से नियमः अस्ति मिलति अकर्मक क्रियापदम्
Okay, but again question, right? Akarmaka, once we say here akarmaka, then this will never have
karma padam. Yes, right.
It will never have.
Yes.
We cannot use with the karma padam this.
You are right.
Wow, this is how to remember, I don't know. But
yeah. By practice, it has to come, it will come, Mahodaya.
Too complex, everything, yeah.
अस्तु मिलति इस् अकर्मक क्रियापदम्
ओके
हसति
हसति
किं हस कं हसति तादृशं न वदामः, अतः अकर्मकक्रियापदम्.
ओके.
अनन्तरं निन्दति.
भगिनि, एनि लाजिक् हियर् आर् दिस् इस् जस्ट्
लाजिक् इस् द लाजिक् इस् यत्र कर्मपदं भवितुम् अर्हति तद् सकर्मकक्रियापदं, यत्र भवितुं न भवितुं कर्मपदं न भवितुम् अर्हति तत् सकर्मकक्रियापदम्. एतत् सुलभः नियमः अस्ति. अग्रे गत्वा नूतननियमः अपि पठामः. फार् द मोमेण्ट् दिस् इस् अ रूल् दट् वी हेव् टु दिस् इस् द वे वी हेव् टु रिमेम्बर् अण्ड् कीप् इन् मैण्ड् गोयिङ्ग् फार्वर्ड्. यस्, मित्रं मिलति वदामः, परन्तु मित्रम् इति प्रथमविभक्तिः अपि मित्रमेव, अत्र प्रथमविभक्तिरूपं भवति. मित्रमिति शब्दः नपुंसकलिङ्ग अकारान्त नपुंसकलिङ्गशब्दः भवति. प्रथमविभक्ति एकवचनं, द्वितीयविभक्ति एकवचनमपि समानमेव. अतः मित्रं मिलति इति अस्ति चेत् भवितुम् अर्हति, दोषः नास्ति. किमर्थं चेत् मित्रमिति प्रथमाविभक्ति एकवचनम् इति अर्थे एव भवति.
ऐ
एम् सो हेपि, यु नो, दीस् आर् आल् टु अण्डर्स्टाण्ड् सम्थिङ्ग् वी नीड् टु थिङ्क् आल् आफ़् दीस् थिङ्ग्स् रैट्. Ravi Mohadi,
to meet the people, then how to tell Bhagini?
Vakyam, ekam vakyam adati va?
Like, she will, like, she goes to school to meet friends.
To meet friends nama sa me
or to meet people, but not friends. To meet people, she goes to a fair to meet people, like
sa janaha melitum vidyalayam gachati karyalayam gachati va vidyalayam gachati va iti bhavati. Prathama rupam eva upayogam kurumah sadharanatya.
Okay, Bhagini. It will change to Tumunanta Rupam rather than... Thank you, Bhagini.
Samichana.
So Bhagini, so Patati should be Sakarmaka, right?
Mahodhi, I think we'll start with Milati is Akarmaka. Hasati is also Akarmaka.
Okay, correct.
Nindati is Sakarmaka.
Nindati is Sakarmaka, okay.
I hope all of you are writing down a or sa before the verb, so that it's very important for us to remember these things. Gradually, we will yes.
Okay.
Patati is akarmaka.
Akarmaka, okay.
So it's udaharanartham phalam patati iti sadharanatya udaharanam asti vadamah samskrita bhashayam. Phalam patati atra phalam iti shabdah akaranta pullinga shabdah. परन्तु फलम् इति अत्र उपयोगं कुर्मः चेत् प्रथमविभक्तिरूपमेव वयं कुर्मः, द्वितीयविभक्तिरूपं नास्ति अत्र. किमर्थं चेत् प्रथम नपुंसकलिङ्गशब्दे प्रथमाविभक्ति द्वितीयविभक्तिरूपं समानमेव भवति. अस्तु, ऐ विल् ट्रै टु टेल् दिस् इन् इङ्ग्लिश्.
Same thing with Mitram, right?
Exactly. Right. I'm just repeating the same point. Yes, Bhagini. So, phalam patati iti vakyam asti chet, phalam is a akaranta pullinga napumsakalinga shabdaha. Right? Do you agree with that, Mahodaya?
Bhagini. For example, balakaha patati.
Atra balakam patati, balakaha patati eva bhavati. बालकं पतति इति भवितुं न अर्हति. किमर्थं चेत् पतति इति शब्दः अकारान्त अकर्मकधातुः सोरि अकर्मकक्रियापदम्.
ओके,
बालकः पतति, बालकाः पतति, वानरः पतति, वानराः पतति इति वक्तुं शक्नुमः.
ओके,
परन्तु कर्मपदमस्ति चेत् वानरं पतति, वानरान् पतति, पतन्ति इति न भवितुम् अर्हति. कर्मपदं न भवितुम् अर्हति अत्र.
ओके, आं भगिनि.
सो पतति इस् अकर्मक?
अकर्मक, यस्. You know, this is a very important concept. From here on, whenever you go to any class, you know, any Sanskritam class, this is a common thing they will keep in mind to do anything in Kriyapadam. This is the next step to understand the Kriyapada Rupam is, they will always have in mind clearly, oh, this is Sakamaka Kriyapadam, kila ataha Karmapadam nasti. Oh, Karmapadam asti. If it's Akarmaka Kriyapadam, oh, we have to learn to identify, by practice it will come. This is akarmaka kriyapadam, this is akarmaka kriyapadam iti. Astu, agre, patati is akarmaka kriyapadam, akarmaka. Anantaram nayati, nayati is akarmaka.
Nayati is akarmaka, okay.
Anayati is akarmaka.
भगिनी पतति इस् अकर्मक, रैट्?
अकर्मक, आम् आम् आम्, सत्यमेव भगिनि.
ओके भगिनि,
अगेन् सोरि भगिनि, ऐ एम् कन्फ्यूस्ड् अगेन् बिकास् बालकः पतति, रैट्? सो ओके, देर् इस् नो कर्मपद हियर्. ओके, अण्डर्स्टाण्ड्.
या, इट् मैट् सीम् टु अण्डर्स्टाण्ड्, अगेन् इट् मैट् नाट् सीम् टु अण्डर्स्टाण्ड्, यु नो, वी मैट् नाट् बी. That's a common thinking, Mahodaya. Chinta mastu. If you have doubts, please keep asking. No problem. I won't get tired.
Bhagini, Kshamyata. Sakarmaka is Sakarmaka. Can you tell what is Sakarmaka in one sentence?
Yatra karma padam bhavitum arhati, that Sakarmaka kriya padam.
Yatra karma padam bhavitum arhati.
So if you ask me what is akarmaka, it is opposite of whatever you wrote. Yatra karma padam na bhavitum arhati, that is akarmaka.
Okay.
Na bhavitum arhati.
Going forward, when we start looking big grammar dictionaries or anything, you will see in the, for example, if you look at English dictionaries, right? What will you find? For example, if you go to find the word apple.
Yeah, normally they give noun, verb, all those things.
Like that, right? So, yeah. Going forward, if we go to look at this, these kinds of verbs in the next level, they will give in brackets whether it's akarmaka kriyapadam or sakarmaka kriyapadam.
Okay, never observed, need to see them.
because we don't have need, right? We are not going to write such big text or anything, so we never generally don't have that need. But going forward, I'm giving you all this information because I understood these things only after attending many other classes. So, but even now, I don't refer to dictionary whether to see it as a sakarmaka or the sakarmaka. But when I'm coming to this venture of sharing these things, then I'm paying attention to all of these things. अस्तु. नौ इदानीं पतति इस् अकर्मक, नयति इस् सकर्मक, आनयति इस् सकर्मक, वदति इस् सकर्मक, स्मरति इस् सकर्मक, गच्छति इस् सकर्मक,
आगच्छति आल्सो सकर्मक,
सकर्मक,
इच्छति
सकर्मक,
उत्तिष्ठति
अकर्मक.
ओके, उत्तिष्ठति अकर्मक.
पिबति सकर्मक, Okay, in this page, whatever we did now, I will read out those verbs which are only akarmaka kriyapadam, okay, for the double, just for the clarification. Kridati, bhavati, asti, milati, hasati, patati, uttishtati. In this page only these verbs are akarmaka kriyapadam, kriyapadani. In the next page, can I just tell only those kriyapada rupam that are akarmaka kriyapadam? Just for the sake of marking, and then we can go back to looking few sentences here in the examples. Okay. In the third, first one is tyajati sakarmaka, pashyati sakarmaka,
upavishyati
is akarmaka, dadati sakarmaka, sakarmaka.
Okay.
Pruchati sakarmaka, krinati is sakarmaka, janati is sakarmaka,
nidra is
akarmaka, samichinam, akarmaka. Then karoti is sakarmaka, svikaroti is sakarmaka, shrunoti is sakarmaka, grunnati is sakarmaka, roditi is akarmaka, roditi is akarmaka, shaknoti is akarmaka, pujayati is sakarmaka.
Bhagini, shaknoti is akarmaka, bhagini.
Akarmaka, bhagini. Pujayati is akarmaka. Preshayati is sakarmaka. Prakshalayati is sakarmaka. Stapayati sakarmaka. Suchayati sakarmaka. Tarjayati sakarmaka. Ahvayati is sakarmaka. Astu. Now, Ahvayati is sakarmaka. So in this page, in the second page, I will tell only those that are akarmaka, just for clarification. Upavishati is akarmaka, nidrati akarmaka, roditi akarmaka, shaknoti akarmaka, tavadeva. Nidrati api akarmaka, kshamyata. Parantu, atra, mahodaya, त्यजति इति अस्ति एकवचनरूपं त्यजन्ति इति अस्ति चेत् सकर्मक वा अकर्मक वा
त्यजन्ति
बहुवचनरूपम् अहं बहुवचनरूपं पृच्छामि
शुड् बि सकर्मक
आम् सकर्मक इति क्रियापदम् अस्ति चेत् इवन् इफ् यु चेञ्ज् द फार्म् इट्स् अ द्विवचनं वा बहुवचनं वा प्रत्ययः अस्ति वा
Anyway,
it depends on the verb, right? So, kriyapadam. Yes. So, it depends on the verb. So, whatever happens, it is sakarmaka or akarmaka. That's all. It will not change.
Doesn't matter with past tense or present tense, all should be sakarmaka, right?
Yeah. You're right.
It basically goes by kriyapadam itself.
Exactly. Right. Gacchatu asti chet, gacchati asti chet, samanam eva. गच्छति इति सकर्मकक्रियापदं गच्छतु अपि सकर्मकक्रियापदमेव अवगच्छति वा अस्तु ऐ हाव् टु क्लारिफै वन् मोर् थिङ्ग् सो इफ् इट् इस् अ सकर्मकक्रियापदम् इस् देर् अ नेसेसिटि टु आल्वेस् हाव् अ कर्मपदं देर्
नो जस्ट् नौ वी सॉ द एग्जांपल्
एक्साक्ट्लि यस् यस् Yeah, I wanted to point out that. It's a very samichinam mahodaya, bahu samichinam. Not necessarily in a sentence. If we have a patati iti kriyapadam asti chet, karmapadam atra avashikam bhavati iti niyamaha nasti.
Ah, Bhagini, that's the reason it confuses us.
Yeah. either karma padam can be there in a sentence or may not be there in a sentence.
It is invisible.
Exactly, yes. It may not, karma padam may not be there because there was no need to mention a karma padam there. So it may not be there. But in akarmaka kriya padam, there cannot be a karma padam. That's all.
So if we are making a sentence with akarmaka kriya padam, then we cannot use karma padam at all.
Yes, exactly. Right. That is a niyam. That is a rule of grammar. Sanskrit grammar rule. That is a grammar rule here. अस्तु इदानीं सप्तमवाक्यमस्ति सः देवीं नमस्कृत्य देवीमिति कर्मपदमस्ति क्रियापदरूपं नमस्कृत्य देन् विद्यालयं कर्मपदं गच्छति इति क्रियापदं विद्यालयं गच्छति इति क्रियापदस्य कर्मपदम् अस्तु पूर्वस्मिन् वाक्ये पश्यतु गच्छतु इति क्रियापदमस्ति गच्छतु इति सकर्मक वा अकर्मक वा
सकर्मक
इवन् इफ् वि डु नाट् नो अस्यूम् यु डु नाट् नो दट् गच्छति इस् अ सकर्मक और् अकर्मक इफ् यु लुक् अट् द नेक्स्ट् सेण्टेन्स् यु सी दट् विद्यालयम् इस् अ कर्मपदं सो इट् केन् हेव् अ कर्मपदम् ओ सो देन् गच्छतु इस् आल्सो सकर्मक क्रियापदं बट् इन् दिस् सेण्टेन्स् दे वास् नो नीड् सो देर् इस् नो कर्मपदं जस्ट् इन् दिस् सेण्टेन्स् दट्स् आल् इट् इस् आप्शनल्
Amen.
It's optional to have a karma padam in sakarmaka kriya padam. Yeah, astu. Agre, astu. Mahodhyam, if you look at the ninth sentence, ninth. Samayaha nasti.
Samayaha nasti.
Mm.
Okay, nasti is a akarmaka kriya padam.
Assume if you do not know that nasti is a akarmaka kriya padam, how will you find an easy way?
Yeah, because samayaha is again pullinga.
No, what I was trying to tell is, you know, asti is a akarmaka kriya padam. Opposite of asti is na asti. Na asti is together called as nasti. So nasti is also an akarmaka kriya padam. Just some clues. So nasti is also akarmaka kriya padam. Atah samayam nasti iti na uktavantah. Samayah iti prathama vibhakti roopam eva atra asti. Samayah nasti.
Samayah nasti.
Agree. Agatavan.
Yeah, agatavan is a sakarmaka kriya padam because bhulokam is a karma padam associated.
Samichinam. Samichinam. Astu. Kevalam kriya padam drushtva akarmaka va sakarmaka va iti eva vadatu. Gatavati.
Gatavati is a sakarmaka kriya padam.
Samichinam. Astu. Gatavan.
Gatavan is also sakarmaka kriya padam.
Kritavan.
सकर्मक क्रियापदम्
करोति
सकर्मक क्रियापदम्
जीवति
कुर्वान् जीवति
अत्र वयं न दृष्टवन्तः जीवति अकर्मक क्रियापदं भवति
ओके बिकॉज़
अहं पुनः एकवारं दृष्ट्वा वदामि अत्र क्रियापदं नास्ति अत्र क्रियापदं नास्ति अहं एकवारं दृष्ट्वा वदामि अहं मम व्यूहमस्ति जीवति इति अकर्मक क्रियापदम् इति दृष्ट्वा
वदामि भगिनि क्रीडति अकर्मक क्रियापदं भगिनि
एकनिमिषं
क्रीडति
आम्
इट् इस् सकर्मक
अकर्मक अकर्मक क्रीडति अकर्मकं भगिनि
भगिनि लैक् हि प्लेड् अ गेम् मीन्स् हि प्लेड् गेम् लैक् He plays a game.
Prathama vibhakti upayujya eva vakyam bhavati. Prathama vibhakti hi upayujya eva vakyam rachayitum bhavitum arhati. Karma padam bhavitum na arhati atra.
Balakaha kridati.
Balakaha kridati.
Then there is no...
Tadrusham eva bhavitum arhati. Karma padam upayujya na bhavitum arhati.
He played badminton like that. he plays badminton.
Balakaha badminton kridati.
Badminton. संस्कृतेन वक्तुं प्रयत्नं कुर्मः किल. अस्तु, अग्रिमवासरे अहं इतोपि वाक्यानि रचयित्वा
बालकः कन्दुकेन क्रीडति.
तृतीयविभक्ति एव उपयोगं कुर्मः अत्र. कन्दुकेन क्रीडति, कन्दुकं क्रीडयन् इति न भवितुम् अर्हति.
Like if he played the bat like that.
Right. I understand. You are trying to tell this.
It's a game of badminton.
Right. Like, Sami, aham avagachami. What you are trying to tell is, you want to convey that he is playing badminton, but not, you don't want to say that he is playing with ball or something. But in this context, we to convey those things, we have to use only Tritiya Vibhakti or any other Vibhakti, but we cannot use Tritiya Vibhakti Karma Pada Roopam for Akarmaka Kriya Padam. I definitely understand your curiosity and your interest to understand how it will work, why will it not work. There will be absence of Ditya Vibhakti. Ditya Vibhakti itself is Karma Pada Roopam, right? There will be absence of Karma Pada Roopam. We can try to use any other forms of Vibhakti except Karma Pada Roopam for Akarmaka Kriya Pada.
Okay.
I will try to write few sentences for Akarmaka Kriya Padam and share with you in the next class, Bhagini, so that you can get convinced how it can be used. रवि महोदय, धन्यवादः महोदय. माधवी भगिनी, भवती अग्रे पठति वा? स्मरन्ति केवलं क्रियापदमेव पश्यतु, कर्म सकर्मक वा अकर्मक वा एव वदतु. अत्र स्मरन्ति
सकर्मक.
समीचीनम्.
अनुभवति सकर्मक.
समीचीनम्.
करोति सकर्मक.
समीचीनम्.
आपणं गच्छति सकर्मक.
समीचीनम्.
बोधयति सकर्मक.
समीचीनम्.
प्राप्नोति सकर्मक.
समीचीनम्.
सकर्मक. बालान् तोषयति सकर्मक.
समीचीनं समीचीनं. आम्.
नास्ति अकर्मक.
समीचीनं, बहु समीचीनं.
प्रत्यागतवान् सकर्मक.
समीचीनं.
गतवान् सकर्मक.
बहु समीचीनं. समीचीनम्. अस्तु, क्षम्यताम्. ऐ थिङ्क् वि आर् स्पेण्डिङ्ग् अ लाट् आफ़् टैम् जस्ट् इन् दिस् बट् वी हेव् टु ऐ थाट् वी हेव् टु अण्डर्स्टाण्ड् दीस् थिङ्ग्स् अट् दिस् पायिण्ट्. ऐ डोण्ट् नो वेदर् इट्स् अ लाट् आर् लेस्, बट् ऐ थाट् यु नो ऐ थिङ्क् इट्स् इम्पार्टेण्ट् टु नो दीस् फेक्ट्स् बिफोर् वि गो अहेड्. ऐ थिङ्क् वि स्पेण्ड् अट्लीस्ट् 3 weeks हियर् इन् अण्डर्स्टाण्डिङ्ग् दीस् 2 pages. प्लीस् डु नाट् थिङ्क् दट् वि आर् गोयिङ्ग् स्लो. अफ् कोर्स् वि आर् गोयिङ्ग् स्लो, बट् देर् इस् लाट् आफ़् अण्डर्स्टाण्डिङ्ग् प्रोसेस्.
No, I think we are okay.
Yeah, because there's a lot of understanding process that has to go in while learning this. And I wanted to apologize that all of us, somehow I thought I should cover all, taking chance in asking everybody at least 5 sentences. But I think some of us in the class, I couldn't call all of them to give a chance. Going forward, somehow I'll try to balance, giving turns to... All of the people in the class.
Bhagini.
Yes.
I'll repeat the same question. For Sakarma Dhatu, it is not compulsory to have a Karma Padam. And
right.
One more thing, that for Sakarma Dhatu, if the form changes, but still it will remain the same, for a singular, plural, or for a prathama
yes, pratham, yes. Yeah.
Yes. So similarly, for the karma pada rupam of the sakarmak dhatu.
Mm-hmm.
There also it is not compulsory to have a karma padam.
Yeah.
Means
yeah, here we saw an example, right? Yeah, sarmaka, sakarmaka dhatu, not it's optional to have a karma padam.
Okay, because in all the 25 sentences here, in every sentences for this kriyapad rupam, we had a karma padam.
Right.
So means for sakarmak dhatu kriyapad rupam, it is optional.
Right.
We can
right.
skip if we want to.
Yes. Okay. Bhagini, look, like when we are learning, it's so hard for us to understand so many things. But imagine the person who has designed this book, they have taken a lot of effort to construct sentences in such a way that, where there are so many things included for us to understand. You know, not necessarily that we will be able to understand everything just at the same moment. You know, after this we will be learning, even just for Karma Padam Rupam itself, I think we have at least 4 or 5 pages to go ahead. Just for Dvitiya Vibhakti Rupam. By the time we go to Tritiya Vibhakti, I think we might forget this. That's fine. But we have to keep repeating the concepts over and over so that we try to remember all this. And not just in one time we will remember and learn everything. It's hard, I certainly understand. But you're right, Bhagini, for Sakarmaka Kriyapadam, it can have karma padam, but it is optional. It can have or it may not have in the sentence. But akarmaka kriyapadam, you cannot have a karma padam in the before the kriyapadam. Yes. Here they have just designed the sentences in such a way for us to understand so many things. That's all. Yeah. Prashnaha Santiva? Padmini Bhagini, Chamitam Bhagini,
Aam Bhagini.
Prashnaha Astiva Bhagini.
Prashnaha Asti, but see, we can't understand why it's happening like that. We have to just accept.
It's a rule. That's all. It's a rule.
Yeah, it's a rule. So, there's no point in asking questions, right?
Right, but it's not that you have to, you should not ask questions. We should have curiosity inside ourselves, and going further, when we start learning more about the grammar, you will have more better reasoning, and that will answer your inquisitiveness.
Yeah. So for now we'll accept whatever.
Yes. Yeah. Right.
Okay.
You know, but okay. I'm also trying if I can give more information about the sakarmaka kriyapadam, the more we share grammatical rules, the more things will become complex for us as well. That's what I'm thinking. So, to keep things simple, we'll just learn some rules as rules. And going forward, we will understand, you know, when we deal more with grammar and things like that, then we will get answers for many of the rules.
Yes, Bhagini.
Yeah, Radhika Bhagini? Kshamitam Bhagini, I did not
understood,
madam. Everything I understood. Astu. Agrima Vasare, Agre Gachamaha. I will definitely not be in the same page. Agre Gachamaha, Agre. Agrima Vasare.
Bhagini, where can I get Kriyapada list, Bhagini?
Oh, sure, Bhagini. I will send it to you once again, Bhagini. Sure. Because after you came, I think I did not share. I will share with, in the group, I will share once again, Bhagini.
Dhaniwada, Bhagini.
Yeah, so. Dhaniwada, Bhagini. Namaskara. Agrima Vasare Milamaha. Agrima Vasare Milamaha.
Shubaratri, Madam.
Shubaratri.
Agrima Vasare Milamaha.
धन्यवाद बगिनी धन्यवाद नमस्कार.